अथ श्रीगुरुस्तोत्रम् अखण्डमण्डलाकारो व्याप्तयेन चराचरम् तत्पदं दर्शितयेन तस्मै श्रीगुरवे नमः। अज्ञानतिमिरान्धस्य ज्ञानाय जनशलाकया चक्षुरुन्मीलितयेन तस्मै श्रीगुरवे नमः। गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः। स्थावरै जङ्गमौ व्याप्तै यत्किञ्चित् सचराचरम् तत्पदं दर्शितयेन तस्मै श्री गुरवे नमः। चिन्मयौ व्यापि यत्सर्वं त्रैलोक्यं सचराचरं तत्पदं दर्शितयेन तस्मै श्रीगुरवे नमः। सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः। चैतन्यशाश्वतशान्तो व्योमातीतो निरञ्जनः बिन्दुनादकलातीतस्तस्मै श्री गुरवे नमः। ज्ञानशक्तिसमारूढस्तत्त्वमाला विभूषितः भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः। अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः। शोषणं भवसिन्धोश्च ज्ञापनं सारसं पदः गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः। न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः। मन्नाथ श्रीजगन्नाथो मद्गुरु श्रीजगद्गुरुः मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः। गुरुरादिरनादिश्च गुरुः परमदैवतम् गुरोः परतरन्नास्ति तस्मै श्रीगुरवे नमः। त्वमेव माता च पिता त्वमेव त्वम् त्वमेव बन्धुश्च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव। इति श्री गुरुस्तो